अथरस्तमुद्याय कल्पुवाच किं तद्ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम अधिभूतं च किं प्रोक्तो मधिदैवं किमुच्यते अधियज्ञः कथं कोत्र देहेऽस्मिन् मधुसूदन प्रयाणकाले च कथं जेयोऽसि नियतात्मभि श्रीभगवान् उवाच अक्षरं ब्रह्म परमम् स्वभावो ध्यात्ममुच्यते भूतभावोद्भवकरो विसर्गकर्मसंहित अधिभूतं क्षरो भाव पुरुषस्ताधिदैवतम् अधियज्ञोऽहमेवात्र देहवृथाम्बर अन्तकाले च मामेव स्मरन् मोक्त्वा कलेवरं य प्रयाति समद्भावं याति नास्त्यत्र संशय यं यं वापि स्मरन् भावम् त्यजत्यन्ते कलेवरं तन्तमेवैति कान्तेय सदा तद्भावभावित तस्मात् सर्वेषु कालेषु मामनुस्मरयोज्य च मय्यर्पितमनो बुद्धिर्मामेवैष्यस्य संशयम् अभ्यासयोगयुक्तेन चेतसा नान्यगामिना परमं पुरुषं देव्यं याति पार्थानुचिन्तयन् कविं पुराणमनुशासितार मनोरणीयां समनुस्मरेद्य सर्वस्य धातारमचिन्त्य रूप मादेत्य वर्णं तमसः परस्तात् प्रयाणकाले मनसा चलेन भक्त्या युक्तो योगबलेन चैव भ्रूर्मध्ये प्राणमावेश्य सम्यक् सतमं परं पुरुषमुपैति दिव्यम् यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागा यदीच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण प्रवक्ष्ये सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च मूर्ध्न्याधायात्मनः प्राण मास्थितो योगधारणा ओमेत्येकाक्षरं ब्रह्म व्याहरं नामनुस्मरन् य प्रयाते त्यजन् देहं स्वजाति परमाङ्गतिम् अनन्यचेतः सततं यो मां स्मरति नित्यशः तस्याहं सुलभपार्थ नित्ययुक्तस्य योगिना मामुपेत्य पुनर्जन्म सुखालयमशाश्वतम् माप्नुवन्ति महात्मानः संसिद्धिं परमाङ्गता आब्रह्मभुवनाल्लोकः पुनरावर्तिनोऽर्जुन मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते सहस्रयुगपर्यन्त महर्य ब्रह्मणो विदु रात्रिं युगसहस्रान्तं ते होरात्रविदो जना अव्यक्ताद्यक्तय सर्वा प्रभवन्त्य रागमे रात्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके भूतग्रामस एवायं भूत्वा प्रलीयते रात्यागमेव सर्पार्थ प्रभवत्य रागमे परस्तस्मत्तु भावोऽन्यो व्यक्तो व्यक्तात् सनातन यस्य सर्वेषु भूतेषु नश्यसु न विनश्यति अव्यक्तोऽक्षर इत्युक्त समाहो परमाङ्गतिम् यं प्राप्य न निवर्तन्ते तद्धाम परमं मम पुरुषः स परः पार्थ भक्त्या लभ्यस्तनन्यया यस्यान्तस्थानि भूतानि येन सर्वमिदं ततम् यत्र काले त्वनावृत्ति मावृत्तिं चैव योगिना प्रयातायान्ति तं कालं वक्ष्यामि भरतर्षभ अग्निर्ज्योतिरः शुक्ल षण्मास उत्तरायणम् तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जना धूमो रात्रे तथा कृष्ण षण्मासा दक्षिणायनम् तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते शुक्लकृष्णे गतिषेते जगत शाश्वते मते एकयायात्यनावृत्ति मन्यया वर्तते पुनः नैते स्थिति पार्थ जानां योगी मोह्यति कश्चन तस्मात् सर्वेषु कालेषु योगयुक्तो भवार्जुन वेदेषु यज्ञेषु तपस्सु चैव दानेषु यत्पुण्यभरं प्रदिष्टम् आप्तीति तः सर्वमिदं विदित्वा योगी परं स्थानमुपैति साध्यम् योगी परं स्थानमुपैति साध्यम् ॐ तत्सत् शिवभगवद्गीतासूपनिषत्सूरविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नाम अष्टमः।